ओम अथ अष्टमोऽध्यायः ब्रह्मोपरिशिवस्य अनुग्रहः। चन्द्रिकेश्वर उवाच, ततर्जाथौ महादेवः पुरुषम् कञ्चिदद्भुतम् भैरवाक्यम् भ्रुवोर्मध्यात् ब्रह्मदर्पजिघांसया स वै तदा तत्र पातम् पतिम् प्रणम्य, शिवमङ्गने किम् कार्यम् करवाण्यत्र, शीघ्रम् आज्ञापय प्रभो। वत्सयोऽयम् विधिः साक्षात् जगताम् आद्यदैवतम् नूनम् अर्चय खड्गम् स्वम् चिग्मेन जवसा परम् तवै गृहीत्वैककरेण केशम् तत्पञ्चमम् दृप्तमसत्यभाषिणम् छित्याशिरोह्यस्य निहन्तमुद्यतः प्रकम्पयन् खड्गमतिस्फुटम् करै पिता तवोत्सृष्ट विभूषणाम्बर रघुत्तरीयामलकेश संहतिः प्रवान्तरम्भेव लतेव चञ्चलः पपाद वै भैरव पादपङ्कजे तावद्विधिम् ताद दिदृक्षुरच्युतः कृपालुरस्मद् प्रतिपाद पल्लवम् निशिच्य बाष्पैर् अवदत्कृताञ्जलिर् यथाशिशु स्वम् पितरम् कलाक्षरम्। अच्युत उवाच, त्वया प्रयत्तेन पुरा हि दत्तम् यदस्य पञ्चाननमीश चिह्नम्, तस्मात् क्षमस्वाद्यमनुग्रहार्हम् कुरु प्रसादम् विधयेशमुष्मै इत्यर्चितोच्युतेनेशस्तुष्टः सुरगणाङ्गने निवर्तयामास तदा भैरवम् ब्रह्मदण्डदः। अधाह देव कितवम् विधिम् विगतकन्धरम् ब्रह्मन् त्वम् अर्हनाकाङ्क्षी शठेश त्वम् समाश्चितः अनाथस्ते सत्कृतिर्लोके भूयत्स्थानोत्सवादिकम्। ब्रह्मोवाच, स्वामिन् प्रसीदाद्य महाविभूते मन्ये वरम् मे शिरसः प्रमोक्षम्। नमस्तुभ्यम् भगवते बन्धवे विश्वयोनये सहिष्णवे च दोषानाम् शम्भवे शैलधन्वने। ईश्वर उवाच, अराजभयमेतद्वै जगत्सर्वम् नशिष्यति ततस्त्वम् जहि दण्डार्हम् वः को लोकधुरम् शिशो। वरम् ददामि ते तत्र गृहान् दुर्लभम् वरम् पैतानिकेषु गृह्येषु यज्ञेषु च भवान् गुरुः। निष्फलस्पुदृते यज्ञः साङ्गश्च सह दक्षिणः अदाहदेव कितवम् केतकम् कूटसाक्षिणम् रेरे केतकदुष्टस्त्वम् षढदूरमितो व्रज ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम्। इत्युक्ते तत्र देवेन केतकम् देवजातयः सर्वा निवारयामासुस्तत्पार्श्वद् अन्यतस्तदा केतक उवाच, नमस्ते नाथ मे जन्म निष्फलम् भवदाज्ञया सफलम् क्रियताम् तादक्षम्यता मम किल्बिषम्। ज्ञानाज्ञानकृतम् पापम् नाशयत्येव ते स्मृतिः तादृशे त्वयि दृष्टे मे मिथ्या दोषः कुतो भवेत्। तथास्तु तस्तु भगवान् केतकेन सभास्थले न मे त्वद्वारणम् योग्यम् सत्यवागहमीश्वरः। मदीयास्त्वाम् धरिष्यन्ति जन्मते सफलम् ततः त्वम् वै विदानव्याजेन ममोपरि भविष्यसि। इत्यनुगृह्य भगवान् केतकम् विधिमाधवौ विरराजसभामध्ये सर्वदेवैरभिष्टुतः। इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् अष्टमोऽध्यायः। ओम।